एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति जलवायु परिवर्तनम् समेषाम् संयुक्त समावेश्य विषयोस्तीत्यतः एतस्य प्रतिकरणाय समेषाम् संयुक्त प्रयासस्य आवश्यकता वर्तते। अस्यैव कार्तिकस्य षड्विंशात् दिवसात् अजर वैजानदेशस्य बाकुनगरे आयोजितस्य जलवायु परिवर्तन सम्बद्ध संयुक्त राष्ट्र संघीय संरचना महासन्धेः पक्ष राष्ट्राणाम् सम्मेलनस्य अन्तर्गतम् ह्य नेपालेन आयोजितम् विशेषम् सत्रम् सम्बोधयन् राष्ट्रपतिः पौडेलः जलवायु परिवर्तनात् प्रभावितानि सर्वाणि अपि राष्ट्राणि एकत्र स्थित्वा विमर्शनेन समस्याम् ज्ञातुम् समाधातुम् च सहजम् भवतीति धारणाम् व्यक्तवान्। राष्ट्रपति पौडेलः आगामी दिनेषु पर्वतीय देशैः समुद्र तटीय देशैश्च मिलित्वा जलवायु परिवर्तनस्य कारणेन सम्भावितं प्रभावं रुद्धुम् एकीकृत कार्यक्रमेण सह कार्यं विधातव्यमिति उदैरयत। जलवायुजन्य प्रकोपस्य कारणेन नेपालेन वर्षेस्मिन् महती क्षतिः हानिश्च निर्वह नियास्तीति चर्चयन् राष्ट्रपति पौडेलः आगामी दिनेषु एवंविध समस्याग्रस्तेभ्यो देशेभ्य सर्वैः मिलित्वा सहयोगो विधेया इति बलं प्रादात्। नेपालेन आयोजिते विशेष सत्रे बेलायत फ्रान्स भूटान किर्गिस्तान अजरबैजान प्रभृतीनां राष्ट्राणां सर्वकार प्रमुखाणां प्रतिनिधीनां च सहभागिता आसीत्। तत्पूर्वं ह्य एव पर्वतीय राष्ट्रेण किर्गिस्तान इत्यनेन संचालिते जलवायु परिवर्तनस्य तज्जन्य प्रभावस्य च विषययो उच्चस्तरीय सत्रे नेपालस्य पक्षतः सहभागी राष्ट्रपति पौडेलः जलवायु समस्यां विपन्नता निवारण कार्यक्रमं च एकीकृत रूपेण सम्बोधयितुं विश्व समुदायस्य ध्यानाकर्षणं व्यददात्। राष्ट्रपतिना रामचन्द्र पौडेलेन जलवायु परिवर्तनस्य कारणेन सृष्टायाः समस्यायाः विषये विकसित देशान् गभीरान् सम्पादयितुं संयुक्त राष्ट्रसंघस्य महासचिवः एन्टोनियो गुटेरेस अनुरुद्धो वर्तते। महासचिवेन गुटेरेस इत्यनेन अल्पविकसित राष्ट्राणां सर्वकार प्रमुखैः सह ह्य अजरबैजान देशस्य बाकुनगरे आयोजिते सामूहिक मेलन कार्यक्रमे राष्ट्रपतिः पौडेलः जलवायु परिवर्तनेन नेपालेन सुडव्यायाः समस्यायाः न्यूनीकरणाय विकसित देशेभ्यः अनुदानं प्रदापयितुम् अन्वरुणात्। जलवायु परिवर्तनात् आत्मानं रक्षितुं विकसित राष्ट्रेभ्यः उल्लेख्य मात्रायं सहयोगः प्राप्तुं शक्तो नास्तीति चर्चयन् राष्ट्रपतिः पौडेलः अल्पविकसित राष्ट्रेभ्यः विकासोन्मुख राष्ट्रेभ्यश्च अनुकूलनाय जलवायु परिवर्तनस्य न्यूनीकरणाय च यथेष्टार्थिकं सहयोगम् अन्यविधं सहयोगं च प्रदापयितुं राष्ट्रसंघेन अतिरिक्तः प्रयासो विधेयः इति बलं प्रादात्। तदवसरे राष्ट्रसंघस्य महासचिवः गुटेरेस जलवायु परिवर्तनस्य कारणेन समस्याग्रस्तेभ्यः देशेभ्यः सौविध्यपूर्णं स्रोतः प्रदातव्यमिति धारणाम् अव्यज्य कोप उनविंशतेः सम्मेलनस्य अन्तर्गतम् आयोजितेषु उपवेशेषु विमर्शनेषु वार्तासु च विषयममुं सबलरूपेण उत्थापयितुं परामृष्टवान्। प्रधानमन्त्री केपी शर्मा ओली कथयति कर्णाली स्वास्थ्य विज्ञान प्रतिष्ठानस्य विकासाय सर्वकारः गभीरो वर्तते। कर्णाली प्रदेशेन सह समग्र पश्चिम नेपालस्य केन्द्रभूतस्य प्रतिष्ठानस्य अध्ययनानुसन्धान सेवा प्रवाहान् अतिरिक्त प्रभावकारिणः विधातुं सर्वकारेण कथं विधापि न्यूनता निवार्यते इति समाश्वासयत्। जुम्ला जनपदवर्तिनः कर्णाली स्वास्थ्य विज्ञान प्रतिष्ठानस्य प्रथम दीक्षान्त समारोहे सहभागी भवितुं ह्य जुम्ला जनपदं प्राप्तः प्रधानमन्त्री ओली विशेषज्ञ चिकित्सकानां उत्पादनं जायमानमस्ति, स्वास्थ्य सेवा कर्णालीवासिनां प्रतिगृहं प्राप्ता च वर्तते इति ज्ञात्वा प्रसन्नतां व्यक्तवान्। प्रतिष्ठानस्य कुलपतिश्च प्रधानमन्त्री ओली कृषि पर्यटन भाषा साहित्यै सह कर्णाली प्रदेशः तत्परं स्वास्थ्य सेवा प्रवाहस्य रूपेणापि निर्भरः सम्भूतोऽस्तीति अगदत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः गर्भाशय मुख सम्बद्धारबुद रोगात् रक्षितुम् आराष्टम् बालिकासु निःशुल्कम् टीकाकरणम् आधातुम् निर्णयति। मन्त्रीस्तरीय निर्णयस्य पश्चात् आगामिनः माघ मासस्य त्रयोविंशे दिवसे अर्बुद रोग सम्बद्ध दिवसस्य अवसरे देशव्यापी रूपेण टीकाकरणाधान भियानमेतद् संचालयितुम् मन्त्रालयेन पूर्वकार्यम् विहितम् वर्तते। टीकाकरणाधनाभियानात् आराष्टम् सप्तवर्षेभ्यः चतुर्दश वर्षपार्यन्तिकवयस्काः षोडशलक्षाणि अष्टाशीतिः सहस्राणि नवशतञ्च बालिकाः लाभान्विताः भविष्यन्तीति मन्त्रालयस्य प्रवक्ता डाक्टर प्रकाशबुढा थोकी अज्ञापयत्। सम्प्रति नेपाले प्रतिदिनम् महिलाः गर्भाशय मुखसम्बद्धार्बुदरोगस्य कारणेन चतस्रः महिलाः गर्भाशय मुख सम्बद्धार्बुदरोगस्य कारणेन म्रियमाणाः सन्तीति मन्त्रालयस्य तथ्याङ्कैः दर्शितम् वर्तते। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा वर्तमान सत्ता समीकरणम् चतुरशीत्यधिक द्विसहस्रतम विक्रम वर्षस्य निर्वाचनम् यावत् स्थास्यति विकासस्य कार्याणि गुणात्मक रूपेण अग्रे वर्धिष्यन्ते चेति विश्वासम् व्यनक्ति। डडेलधुरा जनपदस्य नेतृ कार्यकर्तृभिः यो बीते मेलने सभापतिः देउवा जनपदस्य आन्तरमधेश क्षेत्रस्य विकासस्य अपूर्ण कार्याणि सम्पादयिष्यन्ते इति प्रतिबद्धताम् व्यक्तवान्। सभापतिः देउवा ह्यैव नवदुर्गा ग्रामपालिकायाः चोरा बजार स्थाने, भागेश्वर ग्रामपालिकायाः डुंगरी बजार स्थाने, अजय मेरु ग्रामपालिकायाः चमडा बजार स्थाने छ नेतृ कार्यकर्तृभिः सह मेलनम् अकरोत्। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी सहकारी संस्थानाम् षड्भ्यः सहस्रेभ्यः अपि अधिकानाम् सहकारी सञ्चयकर्तृणाम् वित्तम् प्रत्यावर्तितम् वर्तते इति सूचयति। ह्य पाल्पा जनपदीयेन नेपाल पत्रकार महासंघेन तानसेन स्थाने आयोजिते पत्रकार मेलन कार्यक्रमे मन्त्री अधिकारी अवशिष्ट सञ्चयकर्तृणाम् संचितम् धनमपि सहकारी संस्थाभिः संलग्न व्यक्तिभिश्च प्रत्यावर्तयिष्यते इति प्रतिबद्धताम् व्यक्तवान्। उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी कथयति कोषागारेषु वर्धमान वित्त संकलनम् उद्योग व्यवसाय न्यूनायमानम् निवेशनम् च विचार्य सर्वकारेण सर्वैः सम्बद्ध पक्षैः स्थित्वा समस्येयम् समाधास्यते। नैजक्षेत्रेण सह समन्वयम् सहकार्यम् च कृत्वैव अग्रेवर्धनस्य सर्वकारस्य स्पष्ट नीतिरस्तीति भाषमाणः मन्त्री भण्डारी विशेषमिन् तत्कालम् समस्यायाः समाधानस्य अन्वेषणत्वेन योजना निर्मितास्तीति अवोचत्। रूपन्देही जनपदीय व्यापार संघस्य रजत महोत्सव कार्यक्रमम् ह्य बुटवल नगरे सम्बोधयन् मन्त्री भण्डारी साम्प्रतिक काठिन्यस्य अपाकरणाय समेषाम् समन्वयः आवश्यकोऽस्तीति चर्चयन् नेपाल्युत्पादनम् गुणस्तरीयम् विधातुम् आयातित वस्तूनाम् न्यूनमात्रायाम् विक्रयणम् विधातुम् च सर्वैः व्यवसायिभिः प्रवर्तनीयमिति अवोचत। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः आत्मसमीक्षाम् विदाय उपनिर्वाचने प्रवर्तितुम् दलस्य नेतृन् कार्यकर्तृन् च निर्दिशति। आगामिनो मार्गशीर्ष मासस्य षोडशे दिवसे सम्पत्स्यमानाय उपनिर्वाचनाय काष्ठमण्डपस्य कीर्तिपुर नगरपालिकायाम् आयोजितम् प्रत्याशिनः घोषणा कार्यक्रमम् ह्य सम्बोधयन् अध्यक्ष प्रचण्डः दलेन कर्तुम् ईप्सितानि परम् न प्रपूरितानि कार्याणि नीत्वा तेषाम् पूरणस्य प्रतिबद्धतया सह जनतायाम् गन्तुम् अन्वरुणत् इति समाचाराः।